ഹലോ
ഹലോ
സലാം ദിനേശ്, എല്ലാം ബെസ്റ്റ് വേസ്. ഹലോ, ഇസമാലോ മില്ലട്ടാക്ക്
ዲፖዚት አድርጌ ነበርና ወደ ቤት ከአቢሲኒያ ባንክ አልመጣልኝ።
መቼ ነበር ያረከው?
አሁን።
እሺ፣ ቤት ቤት ቁጥሬ ነው?
አዎ።
ቼክ ላድርግልህ። ስንት ብር ነው?
43900 ብር።
እሺ፣ ቼክ ላድርግልህ። ሄሎ፣
አቤት።
3900 ነው ያልከኛ? አዎ፣ ፕሮሰስ ላይ ስለሆነ ነው። ይገባል። እሺ፣ ትንሽ ጠብቀው። እሺ፣ መልካም። እሺ።